शेषाद्रिवासं शरदिन्दुहासं शृङ्गारमूर्तिं सुभदानकीर्तिं श्री श्रीनिवासं शिवदेवसेव्यं श्रीवेङ्कटेशं शिरसा नमामि। सप्ताद्रिदेवं सुरराजसेव्यं संतापनाशं सुविलासकोशं सप्तास्वभासं सुमनोज्ञभूषं श्रीवेङ्कटेशं शिरसा नमामि। भूलोकपुण्यं भवनैकगण्यं भोगीन्द्रचक्रभवरोगवैद्यं भास्वत्किरीटं बहुभाग्यवन्तं श्रीवेङ्कटेशं शिरसा नमामि। लोकान्तरङ्गं लयकारमित्रं लक्ष्मीकणत्रं ललिताब्जनेत्रं श्रीविष्णुदेवं सुजनैकगम्यं श्रीवेङ्कटेशं शिरसा नमामि। वीराधिवीरं विमगादिरूढं वेदान्तवैद्यं विबुदासिवन्द्यं वागीशमूलं वरपुष्पमालिं श्रीवेङ्कटेशं शिरसा नमामि। संग्रामभीमं सुजनाभिरामं संकल्पपूरं समताप्रचारं सर्वत्र संस्थं सकलागमस्तं श्रीवेङ्कटेशं शिरसा नमामि। श्रीचूर्णफालं सुगुणालवालं श्रीपुत्रितातं सुखमुख्यगीतं श्रीसुन्दरीशं शिशिरान्तरङ्गं श्रीवेङ्कटेशं शिरसा नमामि। सम्मोहदूरं सुसुखशिरसारं दाक्षिण्यभावं दरहासशोभं राजाधिराजं रमयाविहारं श्रीवेङ्कटेशं शिरसा नमामि। विद्यारण्ययतीशौना विश्वगुरुयशस्विना श्रीवेङ्कटेश्वरम्याष्ट कमरं परिकीर्तितं श्रीवेङ्कटेशस्य दयापरस्य स्तोत्रं च दिव्यं सुजनाळिभव्यं संसारतारं सुसुभालवालं पठन्तु नित्यं विबुधाश्च सत्यम्।